സവ്രീഡമന്ദൈരിവ നിഷ്ക്രിയത്വാത് നാത്യർത്ഥമസ്ത്രൈരവഭാസമാനഃ യശഃ ക്ഷയക്ഷീണ ജലർണവാഭഃ ത്വമന്യമാകാരമിവാഭിപന്നഃ. സവ്രീഡേതി പുനശ്ച നിഷ്ക്രിയത്വാത് അർത്ഥക്രിയാശൂന്യത്വാത് സവ്രീഡമന്ദൈരിവ സവ്രീഡൈഹി അത ഏവ മന്ദൈഹി അപടുഭിരിവ സ്ഥിതൈഹി ഇതി ഉത്പ്രേക്ഷ. മൂഢാൽപാ പടുനിർഭാഗ്യാ മന്ദാഹ ഇത്യമരഹ അസ്ത്രൈഹി അത്യർത്ഥം ന അവഭാസമാനഹ ന പ്രകാശമാനഹ പൂർവം തോ നൈവമിതി ഭാവഹ കിന്തു യശഃ ക്ഷയാത് ഹേതോഹ ക്ഷീണജലഹ യഹ അർണവഹ തദാഭഹ തത്സദൃശഹ ത്വം അന്യം ആകാരം അഭിപന്നഹ പ്രാപ്തഹ ഇവ സ്ഥിതഹ ഇത്യുത്പ്രേക്ഷ. തസ്യ ക്ഷീണജലാർണവാഭ ഇത്യുപമാസം സൃഷ്ടിഃ. ദുശ്ശാസനാമർശരജോ വികീർണൈഃ ഏഭിർവിനാർത്ഥൈരിവ ഭാഗ്യനാഥൈഃ കേശൈഃ കദർത്ഥീകൃതവീര്യസാരഃ കച്ചിത് സ ഏവാസി ധനഞ്ജയസ്ത്വം. ദുശ്ശാസനേതി പുനശ്ച ദുശ്ശാസനസ്യ കർത്തുഹു ആമർശഃ ആമർഷണം ആകർഷണം സ ഏവ രജഃ ധൂലിഃ മാലിന്യഹേതുത്വാദിതി ഭാവഃ തേന വികീർണൈഃ വിക്ഷിപ്തൈഃ അത ഏവ വിനാഥൈഃ ഇവ സ്ഥിതവതാം യുഷ്മാകം അസത്വപ്രായത്വാത് അനാഥൈരിവ സ്ഥിതൈരിത്യുത്പ്രേക്ഷ. അന്യഥ കഥമിയം ദുർദശ ഇതി ഭാവഃ കിന്തു ഭാഗ്യനാഥൈഹി ദേവമാത്രശരണൈഹി അന്യഥ സ്വരൂപമപി ലുപ്യേത ഇതി ഭാവഃ ഏഭിഹി പരിദൃശ്യമാനൈഹി അസംയമിതൈഹി ഇതി ഭാവഃ കേശൈഹി ശിരോരുഹൈഹി കുത്സിതഃ അർത്ഥഃ വസ്തു കദർത്ഥഃ അർത്ഥോഭിധേയരൈവസ്തു പ്രയോജനനിവൃത്തിഷു ഇത്യമരഃ കോഹ് കത്തത് പുരുഷേചി ഇതി കുശബ്ദസ്യ കദാദേശഃ. കദർത്ഥീകൃതൌ ഗർഹ്യാർത്ഥീകൃതൌ വീര്യസാരൌ ശൗര്യബലേ യസ്യ സഹ തഥോക്തഃ ഇത്ഥം പൂർവവിലക്ഷണഃ ത്വം സ ഏവ ധനഞ്ജയഃ അസി കച്ചിത് കച്ചിത് കാമപ്രവദനേ ഇത്യമരഃ സ ഏവ ചേത്വം നൈവം അസ്മാന് ഉപേക്ഷസേ ഇതി ഭാവഃ. സ ക്ഷത്രിയസ്ത്രാണസഹസ്രതാമ്യഃ തത്കാർമുകം കർമ്മസു യസ്യ ശക്തിഃ വഹം ദ്വയീം യദ്യ ഫലേർത്ഥജാതേ കരോത്യ സംസ്കാരഹതാമിവോക്തിം. സ ഇതി ക്ഷതാത് ത്രാജതേ ഇതി ക്ഷത്രം ക്ഷത്രിയകുലം സുപി ഇതി യോഗവിഭാഗാത് കപ്രത്യയഃ പുരുഷോദരാദിത്വാത് പൂർവപദസ്യ അന്ത്യലോപഃ അഥവാ ക്ഷതിതി ക്വിബന്തോപപദാത് കപ്രത്യയഃ ക്ഷത്രേ ജാതഃ ക്ഷത്രിയഃ ക്ഷത്രാത് ഘഃ ഇതി ഘപ്രത്യയഃ കർമ്മണേ പ്രഭവതീതി കാർമുകം കർമ്മണ ഉകൈ ഇത്യുകൈ പ്രത്യയഃ ഏവം സ്ഥിതേ വാക്യാർത്ഥഃ കഥ്യതേ യഃ സതാം സാധൂനാം സഹതേ ഇതി സഹഃ പചാദ്യച് യഃ ത്രാണസ്യ സഹഃ ത്രാണസഃ രക്ഷണക്ഷമഃ സ ഏവ ക്ഷത്രിയശബ്ദവാച്യഃ തഥാ യസ്യ കാർമുകസ്യ കർമ്മസു രണക്രിയാസു ശക്തിഃ അസ്തീതി ശേഷഃ തദേവ കാർമുകശബ്ദവാച്യം അത്രൈവ ഏതൗ ശബ്ദൗ മുഖ്യൗ. नान्यत्रेत्यर्थः एवं स्थिते द्वयीं द्विविधाम् उक्तिम् द्वाविमौ क्षत्रियकार्मुकशब्दौ इत्यर्थः अफले पूर्वोक्तावयवार्थशून्ये अर्थजाते स्वाभिधेय सामान्यजातिमात्र इत्यर्थः जातं जात्योघजन्मसु इति विश्वः वहन् वर्तयन् संस्कारहताम् अव्युत्पत्तिदूषितामिव करोतीति उत्प्रेक्षा तस्मात् त्वम् अस्मद्रक्षणेन उक्तदोषात् आत्मानं मोचयस्व इत्यर्थः वीतौजसः सन्निधिमात्रशेषाः भवत्कृतां भूतिमपेक्षमाणाः समानदुःखा इव नस्त्वदीयाः सरूपतां पार्थ गुणा भजन्ते वीतेति हे पार्थ वीतौजसः निष्प्रभाः सन्निधिमात्रशेषाः सत्तामात्रावशिष्टाः भवत्कृतां भवता करिष्यमाणाम् आशंसायां भूतवच्च इति भूतवत्प्रत्ययः भूतिम् अभ्युदयम् अपेक्षमाणाः त्वदीयाः गुणाः समानदुःखाः समदुःखभाज इव नः अस्माकम् स्वरूपताम् वीतौजस्त्वादिसाधर्म्यम् भजन्ते इत्युपमा सा च समानदुःखा इवेति उत्प्रेक्षया वीतौजस्त्वादिसम्भावितया अनुप्राणितेति अनुसन्धेयम् आक्षिप्यमाणम् रिपुभिः प्रमादात् नागैरिवालूनसटम् मृगेन्द्रम् त्वां धूरियं योग्यतयाधिरूढा दित्यादिनश्रीरिव तिग्मरश्मिम् आक्षिप्येति प्रमादात् प्रज्ञाहीनत्वात् न तु दौर्बल्यादिति भावः रिपुभिः आक्षिप्यमाणम् अधिक्षिप्यमाणम् अत एव प्रमादात् नागैः गजैः ग्रहे भाहि गजा नागाः इति वैजयन्ति आलूनसटम् आक्षिप्तकेसरम् सटा जटाकेसरयोः इत्यमरः मृगेन्द्रम् सिंहमिव स्थितम् त्वाम् इयम् धूः कार्यभारः तिग्मरश्मिम् सूर्यम् दीप्त्या दिनश्रीरिव योग्यतया निर्वाहकतया अधिरूढा आरूढवती कर्तरि तः त्वदधीना इत्यर्थः करोति यो शेषजनातिरिक्ताम् सम्भावनामर्थवतीम् क्रियाभिः संसत्सु जाते पुरुषाधिकारे न पूरणी तम् समुपैति सङ्ख्या करोतीति यः पुमान् अशेषजनात् इतरजनात् अतिरिक्ताम् अधिकाम् सर्वातिशायिनीमित्यर्थः सम्भावनाम् योग्यताम् क्रियाभिः चरितैः अर्थवतीम् सफलाम् करोति तम् पुमांसम् संसत्सु सभासु सभासमितिसंसदः इत्यमरः पुरुषाधिकारे योग्यपुरुषगणनाप्रस्तावे जाते सति पूर्यते अनयेति पूरणी सङ्ख्या द्वित्वादिसङ्ख्या न समुपैति न गच्छति अद्वितीयः भवतीत्यर्थः तस्मात् असाधारणलाभाय त्वया अपि महान् उत्साहः आस्थेयः इति भावः प्रियेषु यैः पार्थविनोपपत्तेः विचिन्त्यमानैः क्लममेति चेतः तव प्रयातस्य जयाय तेषाम् क्रियादघानां मघवा विघातम्। प्रियेष्विति हे पार्थ, प्रियेषु अस्मासु विषये उपपत्तेः कारणात् विना एव विचिन्त्यमानैः अकस्मादेव आशङ्क्यमानैः यैः अघैः चेतः क्लमं खेदम् एति। जयाय प्रयातस्य तव सम्बन्धिनां तेषाम् अघानां व्यसनानां। दुःखैनो व्यसनेष्वघम् इत्यमरः मघवा इन्द्रः। यः अस्माभिः उपास्यते इति भावः विघातं निवारणं क्रियात् करोतु आशिषिलिङ्ग्। तस्मात् अस्मच्चिन्तया न चेतः खेदयितव्यं जयार्थिना त्वया, अन्यथा तदसंभवादिति भावः। मागाश्चिरायैकचरः प्रमादम् वसन्न संबाध शिवेपि देशे, मत्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि। मागा इति असंबाधः असंकटः, विजनः इत्यर्थः, संकटं ना तु संबाधः इत्यमरः। शिवः निर्बाधः, द्वयोः अन्यतरस्य विशेष्यत्वविवक्षायां विशेषणसमासः। अस्मिन् असंबाधशिवे अपि देशे चिराय चिरम्, एकश्चासौ चरश्चेति एकचरः एकाकी, वसन् प्रमादं दौर्बल्यं मागाः। इणो गा लुङि इति गादेशः, न तु निःस्पृहस्य मम अकिञ्चित्करः प्रमादः इति वाच्यमित्याशङ्क्य आह मात्सर्येति। मत्सर एव मात्सर्यं द्वेषः, रागः स्नेहः। ताभ्याम् उपहतात्मनां रागद्वेषदूषितस्वभावानां मानसानि मनांसि साधुषु सज्जनेष्वपि विषये स्खलन्ति विकुर्वते हि। अत्र प्रमादनिषेधलब्ध अप्रमादरूपकारणेन अर्थप्राप्तिरूपकार्यस्य व्यतिरेककारणसमर्थनात् वैधर्म्येण कार्यकारणसमर्थनरूपः अर्थान्तरन्यासः। तदाशु कुर्वन् वचनं महर्षेः मनोरथान्नः सफलीकुरुष्व, प्रत्यागतं त्वास्मि कृतार्थमेव स्तनोपपीडं परिरब्धुकामा। तदिति तत् तस्मात् कारणात् आशु शीघ्रं महर्षेः वचनं कुर्वन् तपस्यन्नित्यर्थः। नः अस्माकं मनोरथान् सफलीकुरुष्व, अरिनिर्यातनेन अस्मान् प्रतिष्ठापय इत्यर्थः। प्रार्थनायां लोट्, किञ्च कृतार्थं कृतकृत्यं प्रत्यागतमेव त्वा त्वाम्, त्वामौ द्वितीयायाः इति त्वादेशः। स्तनयोः उपपीड्य स्तनोपपीडम्, सप्तम्यां चोपपीडरुधकर्ष इति णमुल्। परिरब्धुं कामः यस्याः परिरब्धुकामा अस्मि, आलिङ्गितुमिच्छामीत्यर्थः। तुं काममनसोरपि इति मकारलोपः। प्राक्कार्यसिद्धेः प्रमदालिङ्गनमपि न प्रीतिदमिति भावः। उदीरितां तामिति यज्ञसेन्या नवीकृतोद्ग्राहितविप्रकारम्, आसाद्य वाचम् स भृशम् दिदीपे काष्ठामुदीचेमिव तिग्मरश्मिः उदीरितामिति सः अर्जुनः इति इत्थम् यज्ञसेनस्य अपत्येन स्त्रिया याज्ञसेन्या द्रौपद्या उदीरिताम् उक्ताम् नवीकृतः पुनरुद्घाटनेन तथा प्रत्यायितः अत एव उद्ग्राहितः मनसि निधापितश्च विप्रकारः परिभवः यया सा ताम् वाचम् आसाद्य आकर्ण्य इत्यर्थः उदीचीम् काष्ठाम् दिशम् दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः इत्यमरः तिग्मरश्मिरिव भृशम् दिदीपे जज्वाल चुक्रोध इत्यर्थः अथाभिपश्यन्निव विद्विषः पुरः पुरोधसारोपित हेति संहतिः बभार रम्योऽपि वपुः स भीषणम् गतः क्रियाम् मन्त्र इवाभिचारिकीम् अथेति अथ विद्विषः शत्रून् पुरः अभिपश्यन्निव स्थितः तथा पुरोधसा धौम्येन आरोपिता समन्त्रम् आहिता हेतिसंहतिः आयुधकलापः यस्य सः तथोक्तः हेतिर्ज्वालाङ्कुरायुधे इति वैजयन्ती सः अर्जुनः रम्यः सौम्यः सन्नपि अभिचारः परहिंसा प्रयोजनम् यस्याः सा आभिचारिकी प्रयोजनम् इति ठञ् ताम् क्रियाम् गतः अभिचारकर्मणि नियुक्तः इत्यर्थः मन्त्र इव रम्यः प्रकृत्या रमणीयः भीषयते इति भीषणम् नन्द्यादित्वात् ल्युप्रत्ययः वपुः बभार प्रशान्तो मन्त्रः प्रयोगभेदादिव सोऽपि अवस्थाभेदात् भीषणो बभूव इत्यर्थः अविलङ्घ्य विकर्षणम् परैः प्रथितज्यारवकर्म कार्मुकम् अगतावरिदृष्टिगोचरम् शितनिस्त्रिंशयुजौ महेषुधी अविलङ्घ्येति परैः शत्रुभिः अविलङ्घ्यम् अनतिक्रमणीयम् विकर्षणम् यस्य तत् अमोघाकर्षणमित्यर्थः किञ्च प्रथितः ज्यारवः गुणध्वनिः कर्म बाणमोक्षणादिकम् च यस्य तत् कार्मुकम् च उद्वहन्नित्यन्वयः तथा अरीणाम् दृष्टिगोचरम् दृष्टिपथम् अगतौ आवहेषु अनिवर्तितत्वात् अस्येति भावः निर्गतः त्रिंशतः अङ्गुलिभ्यः निस्त्रिंशः खड्गः डप्रत्यये सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानात् समासान्तः तेन शितेन तीक्ष्णेन युङ्क्ते इति शितनिस्त्रिंशयुजौ सत्सूद्विष इत्यादिना क्विप् महेषुधी महानिषङ्गौ इषवः धीयन्ते अनयोरिति विग्रहः कर्मण्यधिकरणे च इति किप्रत्ययः तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः तूण्याम् खड्गेतु निस्त्रिंश चन्द्रहासासिरिष्टयः इत्यमरः यशसेवतिरोदधन्मुहुः महसा गोत्रभिदायुधक्षतीः कवचम् च सरत्नमुद्वहत् ज्वलित ज्योतिरिवांतरं दिवः यशसेति किंच गोत्रभिदः इंद्रस्य आयुधक्षतेः वज्रप्रहाररंध्राणि खांडवदाह संभवादिति भावः महसा स्वकांत्या यशसा इव मूर्तया कीर्त्या इव मुहुः तिरोदधत् आच्छादयन् सरत्नं रत्नसहितं अत एव ज्वलितज्योतिः दीप्ततारकम् ज्योतिस्ताराग्निभाज्वाला दृक्पुत्रार्थधरात्मसु इति वैजयन्ति दिवः अन्तरं नभोमध्यम् इव अवस्थितम् अन्तरं परिधानीये बाह्ये स्वीयेऽन्तरात्मनि क्लीबे मध्ये प्रकाशे च इति वैजयन्ति कवचं च उद्वहन् अलकाधिपभृत्य दर्शितम् शिवमुर्वीधरवर्त्म सम्प्रयान् हृदयानि समाविवेशसः क्षणमुद्बाष्पदृशाम् तपोभृताम् अलकेति सः अर्जुनः अलकाधिपभृत्येन यक्षेण दर्शितम् अतः शिवम् निर्बाधम् उर्वीधरवर्त्म हिमवन्मार्गम् प्रति सम्प्रयान् प्रगच्छन् क्षणम् उद्बाष्पदृशाम् वियोगदुःखात् साश्रुनेत्राणाम् तपोभृताम् द्वैतवननिवासिनाम् तपस्विनाम् हृदयानि समाविवेश खेदयामास इत्यर्थः अनुजगुरथ दिव्यम् दुन्दुभिध्वानमाशाः सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीर्वितेने प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीम् भुवमनिभृतवेला वीचि बाहुः पयोधिः अनुजगुरिति अथ आशाः दिशः दिवि भवम् दिव्यम् दिगादिभ्यो यत् दुन्दुभिध्वानम् अनुजगुः अनुदध्वनुः गायतेः लिट् व्योम्नि सुरकुसुमनिपातैः लक्ष्मीः वितेने पुष्पवृष्टिश्च अजनिष्ट इत्यर्थः किञ्च अनिभृताः चञ्चलाः वेलायाम् कूले याः वीचयः ता एव बाहवः यस्य सः तथोक्तः वेला कूलविकारयोः इति शाश्वतः पयोधिः स्फुरन्तीम् उल्लसन्तीम् हर्षात् स्पन्दमानाम् च भुवम् प्रियम् इष्टम् भारावतारणरूपम् कथयिष्यन्निव कथयितुमिव इत्यर्थः लृट्शेषे च इति चकारात् क्रियार्थायाम् क्रियायाम् लृट् आलिलिङ्ग सर्वञ्च इदम् शिवम् दैवकार्यप्रवृत्तत्वात् अस्येति भावः अत्र विशेषणमात्रसाम्यात् अप्रस्तुतस्य गम्यत्वात् समासोक्तिः अलङ्कारः तत्र च अप्रस्तुतयोः भूमिसमुद्रयोः प्रतिपन्नाभ्याम् नायकाभ्याम् भेदे अभेदलक्षणातिशयोक्तिवशात् आलिङ्गनोक्तिरिति रहस्यम् एवम् अतिशयोक्त्यनुप्राणिता समासोक्तिः प्रियकथनात् स्नेहमुज्जीवयति तदङ्गभावम् भजते इत्युभयोः अङ्गाङ्गिभावेन सङ्कर इति विवेचनीयम् इति श्रीमहामहोपाध्याय कोलाचलमल्लिनाथसूरिविरचितायाम् किरातार्जुनीय महाकाव्यव्याख्यायाम् घंटापथ समाख्यायाम तृतीयः सर्गः समाप्तः।